शंकरं विशालं रत्नः प्रभुं तीव्रमनादिरूपं दारिद्र्यदुःखक्षयकारणं च पुनातु मां सवितुर्वरेण्यं यं मण्डलं देवगणेषु पूजितं विप्रैस्तुतं मानवमूर्तिकोविदम् तं देवदेवं प्रणमामि भर्गं पुनातु मां तत् सवितुर्वरेण्यम् त्रैलोक्यपूज्यं त्रिगुणात्मरूपं समस्ततेजो मयदिव्यरूपं पुनातु मां तत् सवितुर्वरेण्यं यन्मण्डलं गूढमति प्रबोधं धर्मस्य वृद्धिं कुरुते जनानां यत् सर्वपापक्षयकारणं च पुनातु मां तत् सवितुर्वरेण्यम् यन्मण्डलं व्याधिविनाशदक्षं यद्यज्ञयजुषामसुसंप्रगीतं प्रकाशितं ये न च भूर्भुवस्व पुनातु मां तत् सवितुर्वरेण्यं यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारणसीदसङ्घः यद्योगिनो यो गजुषां च सङ्घा पुनातु मां तत् सवितुर्वरेण्यम् जनेषु पूजितं ज्योतिश्च कुरिया दिहमर्त्यलोके यत्कालकाला दिमनादिरूपं पुनातु मां तत् सवितुर्वरेण्यं यन्मण्डलं विष्णुचतुर्मुखास्यं यदक्षरं पापहरं जनानां यत्कालकल्पक्षयकारणं च पुनातु मां तत् सवितुर्वरेण्यम् यन्मण्डलं विश्वसृजां प्रसिद्धम् उत्पत्तिरक्षा प्रलयप्रगल्भम् यस्मिन् जगत्संहरतेऽखिलं च पुनातु मां तत् सवितुर्वरेण्यं यन्मण्डलं सर्वगतस्य विष्णो आत्मा परं धाम विशुद्धतत्त्वं सूक्ष्मान्तरेयो गपथानुगम्यं पुनात् आयन्ति यच्चा प्रणसीद्धिसङ्घा यं मण्डलं वेदविदः स्मरन्ति पुनातु मां तत्सवितुर्वरेण्यं यं मण्डलं वेदविदोपगीतं यद्योगिनां योगपथानुगम्यं तत्सर्ववेदं प्रणमामि दिव्यं पुनातु मां तत्सवितुर्वरेण्यं।